नमस्ते, अस्माकं वर्गं प्रति सर्वेषां स्वागतम्। अहं स्लैड् शेर् करोमि, कृपया वदन्तु द्रष्टुं शक्यते इति। द्रष्टुं शक्यते वा? केन् एव्रिवन् सी मै स्क्रीन्?
आं महोदय।
ओके, उत्तमं। सर्वे कृपया म्यूट् मध्ये भवन्तु। I have muted everyone. If you have any questions, please unmute yourself and then ask, okay? Okay, arambham kurmah. We'll just recap, you know, what we have done in the last three classes, actually. Ado parichayah. Yada parichayah kurmah, mama nama shekarah iti bhavati. Yada purusham prati prashnah bhavati, bhavatah nama kim. Tatreva, bhavatyah nama kim. महिलामुद्दिश्य प्रश्नं कुर्मः, तदानीं भवत्याः नाम किं, पुरुषं प्रति भवतः नाम किम्। दिस् इस् क्लियर् रैट्? देर् इस् नो क्वशन् हियर्, अत्र प्रश्नः नास्ति। अनन्तरं यथा मम नाम शेखरः तथा अहं शेखरः, अहं पिता, अहं तन्त्रज्ञः। इस् इट् क्लियर् वाट् ऐ एम् ट्रैङ्ग् टु से? अहं शेखरः, अहं तन्त्रज्ञः, अहं पिता, अहं पुत्रः अपि। ओके, अहं पुत्रः अपि। तथैव रविमहोदय, भवान् परिचयं करोतु, भवान् कः?
Can you hear me now, Sheikh Mahadev?
Yes.
Okay.
भवान् कः?
Okay. अहं रविः। भवान्?
अहं
रविः। ओके, नेक्स्ट् वन्। ओके,
या जस्ट् से वन् मोर् सेण्टेन्स्। अहं रविः, अहं
ऐ डिन्ट् केच् दट् अदर् वन् यु नो, अहं
पिता। सो वेन् यु से भवान् कः, मै क्वशन् इस् हू आर् यु? ओके, ओके, यु केन् आन्सर् दिस् क्वशन् इन् लाट् आफ़् वेस्. ओके, यु केन् से योर् नेम्, यु केन् से योर् प्रोफेशन्, सो आन् अण्ड् सो फोर्. ओके, वेन् ऐ से अहं शेखरः, अहं तन्त्रज्ञः, तन्त्रज्ञः लैक् इञ्जिनियर्, कम्प्यूटर् इञ्जिनियर्. ओके, अहं तन्त्रज्ञः, अहं पिता अपि, ऐ एम् अ फादर् आस् वेल्. अहं वैद्यः न, अहं वैद्यः न, अहं तन्त्रज्ञः. तथा भवान् कः?
भवान् कः?
भवान् कः? वदतु.
भवान् कः? अहं रविः, अहं तन्त्रज्ञः,
अपि च
अहं
भवान् संस्कृतछात्रः.
भवान् संस्कृतछात्रः, दट् मीन्स् संस्कृत स्टूडेण्ट्, रैट्?
भवान् अस् इन् यू, भवान् संस्कृतछात्रः.
ओके, अहं संस्कृतछात्रः.
दट्स् गुड्, त्री इस् गुड् एक्चुलि. ओके, इस् इस् क्लियर्? भवान् कः? यदा महिलां पृच्छामः तदानीं प्रश्नः भवति, भवती का? कौसल्य भगिनी, भवती वदतु, भवती का?
अस्तु महोदय, अहं कौसल्या, अहं गृहिणी.
सा गृहिणी, सा पत्नी अपि.
अहं गायिका, लेखिका च. अहं सेविका च.
उत्तमं, धन्यवादः. इस् इट् क्लियर् न महोदय? अधुना स्पष्टमस्ति वा? अहं सेविका किम् अन्यत् किमपि उक्तवती किं पुनः वदतु भगिनी?
गायिका लेखिका च
गायिका लेखिका गायिका
गायिका सिंगर लेखिका आर्टिस्ट एंड व्हाट इज च फाइनली इफ शी सेड च
च नाम एंड इति अर्थः च नाम एंड ए एन डी एंड दैट्स इट
ओ एंड ओके
स्पष्टं वा अधुना? अधुना नटराजन् महोदय भवान् वदतु, भवान् कः?
अहं नटराजः, अहं तन्त्रज्ञः अपि, अहं पिताः
नास्ति, पिताः न, पिता तावदेव, अहं पिता,
अहं पिता.
अन्यत् किमपि? भवान् गायकः किम्?
अहं गायकः नहि, गायकः न
तावदेव, अहं गायकः न. भवान् लेखकः किम्?
अहं लेखकः न.
लेखकः, लेखकः,
लेखकः न.
उत्तमम्, उत्तमम्. अधुना अत्र अञ्जु भगिनि भवती का?
अहम् अञ्जु शर्मा. अहं सङ्गणकं तन्त्रज्ञ.
सङ्गणकतन्त्रज्ञ, अस्तु अस्तु.
अहं पत्नी, माता, पुत्री.
अहं माता, उत्तमम्. अहं पुत्री, सम्पूर्णवाक्यं वदतु.
अहं गृहिणी.
अहं गृहिणी, उत्तमम्.
अहं वैद्या नास्ति.
अहं वैद्या न, तावदेव, अहं वैद्या न.
न,
उत्तमम्, उत्तमं, पर्याप्तं.
Quick question. So, aham will be for both feminine and masculine, right?
Yes, that's the whole point. That's what I'm trying to prove here. Yes.
Yeah, okay.
So, Gayatri Bhagini, Bhavati Vadatu.
Aham Gayatri. Aham Gayatri. Aham Grihani. Aham... शिक्षिका न.
उत्तमम्.
अहं माता.
उत्तमम्, अहं माता, पर्याप्तम्, अहं माता, उत्तमं, धन्यवादः, धन्यवादः. अधुना रङ्गमहोदय, अयुद रङ्गमहोदय उत्तमं. रङ्गमहोदय, भवान् केन् यु आस्क् मुरळी महोदय एण्ड् वैस् वर्सा, हि विल् आस्क् यु अगेन्, सो आस्क् हिम्.
भवान् कः?
उत्तमं, भवान् कः मुरळी महोदय? आन्सर् प्लीस्.
अहं मुरळिः. मुरळिः, मुरळिः.
अहं पिता, न पिता.
अहं पिता, अहं तन्त्रज्ञिका.
किमिति? वाट् इस् इट् से?
वाट् इस् द वर्ड् फार्
तन्त्रज्ञः?
तन्त्रज्ञः. अहं तन्त्रज्ञः. सो शल् ऐ आस्क् हिम्?
इफ् यु आर् डन् सेयिङ्ग् यस् डेफिनेट्लि.
या, ओके. How should I ask? For any break, it can just be Javad Kaha. Bhavan Kaha.
Bhavan Kaha. Only for male. For female, male. It will be Bhavati Kaha.
Bhavan Kaha. Aham Rangaha. Aham
माता पिता माता महा अहं यन्त्रज्ञः च
ओके अस्तु गुड् इन धन्यवादः पद्मजा भगिनी डू यू वाण्ट् आन्सर्
अहं पद्मजा अहं तन्त्रज्ञ अहं पत्नी अहं माता
उत्तमं पश्यतु तत्र वाट् इस् पद्मजा भगिनी से अहं तन्त्रज्ञा रविमहोदय सेट् अहं तन्त्रज्ञः शी सेस् अहं तन्त्रज्ञा ओके इफ् ऐ से अहं वैद्यः ओके पद्मजा भगिनी वुड् से अहं वैद्या ओके अण्डर्स्टाण्ड् द डिफ़रेन्स् देर् So the question would be, Bhavan kaha for male, Bhavati kaha for female. This is clear, right?
Yes.
Yeah.
Okay. Okay. Then next. Atra, Asandaha asti va or, athava, Asandaha asti kim. Both questions mean one and the same. Okay. Asandaha asti va, athava, Asandaha asti kim. अत्र आसन्दः अस्ति वा न वा अत्र चित्रे आसन्दः अस्ति वा न वा
आम् अस्ति
अस्ति वा
आसन्दः अस्ति अस्ति आसन्दः अस्ति अत्र चित्रे उत्पीठिका अस्ति वा न वा
चित्रे उत्पीठिका अस्ति
चित्रे उत्पीठिका अस्ति उत्तमं तथैव अत्र चित्रे कः अस्ति
अस्ति
कः अस्ति अस्तु आसन्दः अस्ति अपि
ध्वजः अस्ति
वैभवः
अस्ति ध्वजः अस्ति बराक् ओबामा अस्ति
लेखकः अस्ति
अस्ति अस्तु सः लेखकः
वातायनम् अस्ति
वातायनम् अस्ति अपि च
अमेरिकायाः राष्ट्रपति अस्ति
सः एव बराक् ओबामा उक्तं किल सत्यं राष्ट्रपतिः अस्ति भवतु अस्तु अनन्तरं वातायनम् अस्ति
जवनिका
अपि जवनिका अपि अस्ति जवनिका अपि अस्ति
What do you call curtain?
Curtain, right? Curtain.
Yeah, yeah, Javanika, Javanika.
Flag.
Javanika.
Vrikshaha drishyate.
Vrikshaha api asti.
Mahila asti.
Mahila asti, uttama mahila asti. Pariyattam, etavat pariyattam. Asti. Atra. Utpitika, atra asti va. Utpitika kutra asti? Utpitika? अत्र अस्ति अथवा तत्र अस्ति उत्तमम् उत्पीठिका अत्र अस्ति दिस् इस् क्लियर् ओके अस्तु अत्र मीन्स् हियर् इति अर्थः अत्र मीन्स् हियर् तत्र मीन्स् देर् कुत्र मीन्स् देर् ओके आम् उत्पीठिका अत्र अस्ति अत्र चित्रे पुरुषः अस्ति महिला अस्ति ध्वजः अस्ति
ध्वजः
द्वारं द्वारं
नास्ति
द्वारं नास्ति
द्वारं नास्ति
ट्रम्प् महोदय कुत्र अस्ति
ट्रम्प् महोदय
अन्यत्र
सर्वत्र अस्ति
अन्यत्र
अन्यत्र
ट्रम्प् महोदयः अन्यत्र अस्ति वृक्षः अस्ति किम्
आम् अस्ति
आम् वृक्षः अस्ति
पुष्पमस्ति किम्
पुष्पं नास्ति
पुष्पं नास्ति पत्रमस्ति किम्
पत्रमस्ति
तोयमस्ति किम्
नास्ति
नास्ति आकाशः
आकाशः अस्ति
उत्तमम् आकाशः अस्ति एतदपि स्पष्टमिति एव मन्ये अस्तु अधुना अत्र रामः अस्ति एषः रामः एषः कः एषः रामः
रामः
अस्तु धनुः अस्ति एषः धनुः अस्ति
धनुः अस्ति
अस्तु एतत् क्षम्यताम् एतत् धनुः अस्ति ए रामस्य धनुः अस्ति रामस्य धनुः अस्ति रामस्य किरीटम् अस्ति रामस्य किरीटम् अस्ति रामस्य हस्तः
अस्ति
रामस्य हस्तः अस्ति रामस्य माला अस्ति रामस्य माला अस्ति रामस्य पत्नी का
रामस्य पत्नी
सीता न कुत्र अस्ति रामस्य पत्नी का तावदेव रामस्य पत्नी का रामस्य पत्नी सीताः न सीता एव सीताः समरसिंह सीताः ओके रामस्य पत्नी सीता रामस्य पत्नी कुत्र अस्ति रामस्य पत्नी
अन्यत्र
अस्ति अस्तु रामस्य कृपा कुत्र अस्ति
रामस्य कृपा सर्वत्र अस्ति
सर्वत्र अस्ति
शेखरजी कुत्र मीन्स्
वेर् वेर् रामस्य कृपा कटाक्षं सर्वत्र अस्ति अथवा कृपा अथवा कटाक्षं सर्वत्र अस्ति रामः कुत्र अस्ति
रामः
सर्वत्र अस्ति नाट् अत्र तत्र अस्ति रामः सर्वत्र ओके You understand the difference between atra, kutra, tatra, anyatra, sarvatra, all these terms, I hope.
Yep.
Is it clear?
Yep.
Yeah.
Okay. So, Ramaha, Ramasya, Ramasya iti shashti vibhakti rupam. Ramasya iti shashti vibhakti rupam. In the last class, I asked you to do an exercise. Did everyone actually try to do that? Is it clear?
Shekharji, I have question about E.
Okay.
This is clear. Aha is clear.
Okay. And what's the question?
Question is, for example, for Nadi, we translate it to Nadiyaha.
Nadiyaha.
Right? How about Saraswati or any other? Like, the is the ha. I didn't understand that. How did it get translated?
No. Okay. If Nadi is Nadyaha, Saraswati will become?
Saraswatyaha,
that's it.
Oh. And Mala, okay, Mala is Malayaha. Okay.
Malayaha.
Malayaha, okay.
So if you know one Ikaranta form, all the other Ikaranta forms will be the same. If you know one Akaranta form, all the other Akaranta forms will be the same.
So basically, we convert it into ya, a, or aha.
That's it. Asya.
Okay.
Ramaha
okay.
will become Ramasya. So, Krishnaha will become Krishnasya.
Yeah. Krishnasya. Yeah.
Shivaha will become Shivasya.
Shivasya.
So on and so forth. Okay. If I say Sita will become Sita Yaha, Mala will become
Malayaha.
Malaya.
Mahila will become
Mahilayaha.
So on and so forth. If Nadi is Nadyaha, Parvati will become?
Parvatyaha.
Okay, then Saraswati will become?
Saraswatyaha.
There you go, that's it.
Got it.
Okay. So, now I will ask questions. Okay, I'll give you two words. Okay. Just say a sentence using those two words. Okay. Everyone, okay? Like for instance, Vedaha Sama Vedaha Sama. Okay? Atha Vedaha Yajur Bhavadevan. Vedasya Nama Yajur Vedaha. Okay?
Jee.
Clear? That's an example.
Yep.
Similarly, Masa Chaitraha. Masaha Chaitraha. Can you say a sentence now, Anju Sharma ji?
Masya मासः
चैत्रः मासः चैत्रः नौ से सेण्टेन्स् मासः सो वाट् इस् द षष्टि विभक्ति फार्म् फार् मासः मासस्य नाम चैत्रः उत्तमम् उत्तमम् ओके नौ पर्वतः हिमालयः पर्वतः हिमालयः रविमहोदय कञ्जसे
पर्वतः हिमालयः पर्वतः नाम हिमालयः
नो नो नो
पर्वतस्य पर्वतस्य नाम हिमालयः
उत्तमं पर्वतस्य नाम हिमालयः उत्तमं धन्यवादः
हिमालयः
नटराजन् महोदय
या
अभिमन्युः अर्जुनः
अभिमन्युस्य
नो 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 अभिमन्युः दिस् अ उहु वर्ड् वी हेवन्ट् डन् द उहु फार्म् सो यु नो अर्जुनः सो से द सेण्टेन्स् अदर् वे राउंड ओके
अर्जुनस्य पुत्रः अभिमन्युः
उत्तमम् अर्जुनस्य पुत्रः अभिमन्युः ओके अधुना कृष्णः ओके मुरळी महोदय ओके कृष्णः पाञ्चजन्यः कृष्णः पाञ्चजन्यः
कृष्णस्य नाम पाञ्चजन्यः
पाञ्चजन्यः इस् द नेम् आफ् कृष्णास् द शङ्खः ओके अधुना वाक्यं वदतु कृष्णस्य
कृष्णस्य
शङ्खः
शङ्खः कृष्णस्य शङ्खः पाञ्चजन्यः
उत्तमं कृष्णस्य शङ्खः पाञ्चजन्यः अस्तु रङ्गमहोदय नदी गङ्गा
नदी गङ्गा नद्याः नाम गङ्गा
उत्तमं नद्याः नाम गङ्गा आर् दिस् क्लियर्
यस्
हौ आर् एक्चुलि सेयिङ्ग् दिस् सेण्टेन्सेस् ऐ मीन् वाट्स् दि डू यु नीड् मोर् प्राक्टिस् यु थिङ्क् आर् इस् इट् क्लियर्
या इट्स् क्लियर्
यस्
मोस्ट् लैक्लि रैट्
या
ओके सो ऐ विल् आस्क् few more questions then I think I'll wrap this up okay so I'll give an example okay two words I'll give you two words okay ahankarah okay krodhah okay ahankarah krodhah ahankarasya phalam krodhah It's clear? Ahankarasya phalam phalam krodhah
What is the meaning of that word?
Ahankarah means?
Angry.
Ego.
Ego.
Ahankarah.
Yes. Krodhah. Ego
result of anger.
No, no, no. The other way around.
Anger's result is.
Anger is the result of ego, right? Krodhah.
Correct.
अहङ्कारस्य फलं क्रोधः ओके तथैव द्वेषः द्वेषः नाम
हेट्रेड्
द्वेषः दुःखं वाक्यं वदतु द्वेषः दुःखं
द्वेषस्य फलं
दुःखं
द्वेषस्य फलं
दुःखं
सेवा पुण्यं
सेवस्य फलं पुण्यं
सेवायाः फलं पुण्यम्
एक्सलेण्ट् सेवायाः नाट् सेवस्य सेवायाः सेवायाः फलं पुण्यम् ओके परिश्रमः साफल्यं साफल्यं नाम
रिसल्ट्
शङ्कर
महोदय
साफल्यं या साफल्यम् इस् अ कामन् तेलुगु वर्ड् एस् वेल् रैट् साफल्यं नाम योर् सक्सेस् योर् रिसल्ट्
ओके साफल्यम् ओके ओके ऐ हर्ड् दट् पापल्यं सो ऐ एम् कन्फ्यूस्ड्
नो 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 साफल्यं
या गॉट इट् साफल्यं या
ओके सो वी हैव ओके लेट्स डू दिस यू नो वी Is this the last time? Okay. Does anyone want to actually start this?
Yeah, I can start.
Okay. First sentence.
Ayodhyah Raja Dasharathah.
No. Can you say it one more time?
Ayodhyah Raja Dasharathah.
Uttamam. Ayodhyah Raja Dasharathah. Anantaram. Gayatri Bhagini, can you do the next one?
I can't. Dasaradasya. Chatvara.
Chatvara.
Putra.
Putraha. Dasaradasya. Chatvaraha. Putraha.
What does that mean? Chatvaraha means four children, is it?
Four.
Satyam, satyam. Okay, the next one. Rangamohada, can you do the next one?
Pratamaha. Pratamasya Nama Ramaha.
Uttamam. Anju Bhagini, can you do the next one?
Ji. द्वितीयस्य नाम भरतः
मुरलीमहोदय नेक्स्ट् वन्
तृतीयस्य चतुर्थस्य च नाम
कम्प्लीट् द सेण्टेन्स्
तृतीयस्याः
नो 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 तृतीयः तृतीयस्य
तृतीयः चतुर्थस्य च नाम
च नाम नेक्स्ट् लैन्
लक्ष्मणः शत्रुघ्नः च
लक्ष्मणः
सोरि शेखर् महोदय जस्ट् वन् क्वशन् लैक् इन् इङ्ग्लिश् वि यूस् द वर्ड् अण्ड् बिट्वीन् द टु थिङ्ग्स् बट् हियर् वि यूस् द वर्ड् च आफ्टर् द थिङ्ग्स्
विल् गेट् टु आल् दट् एस् वि प्रोग्रेस् ओके Fine. This is okay. Just understand the format here. That's it. That's the whole point okay. here. Okay? We'll get to all those in a minute. Okay. Now, Padmaja Bhagini, can you do the next one?
Ramaha Kausalyasya Putraha?
No, no. Kausalya. Pashyatu tatra. Kausalya.
Okay. Ramaha Kausalyaha Putraha?
No. Kausalya. Kausalya becomes?
रामः कौसल्याः पुत्रः
कौसल्या बिकम्स् कौसल्यायाः
कौसल्यायाः रामः रामः कौसल्या पुत्रः
कौसल्यायाः पुत्रः
कौसल्यायाः पुत्रः कौसल्यायाः पुत्रः रामः कौसल्यायाः पुत्रः
उत्तमम् एण्ड् पारुल् भगिनी can you? शङ्कर महोदय
जी भारतः कैकेय्याः पुत्रः
उत्तमं भारतः कैकेय्याः पुत्रः ओके उत्तमं नेक्स्ट् कौसल्य भगिनि
लक्ष्मणस्य शत्रुघ्नस्य च माता सुमित्रा
What is it?
We know Yaha.
Why?
Sumitra, yeah, okay, yeah.
No. Lakshmanasya Shetughrasya Chamata Sumitra. That's it. Tavadeva. Vijay Mahode? Can you do the next one? Okay, he's on mute. Okay. नटराजन् महोदय डु द नेक्स्ट् ओके
या रामः रावणस्य कुम्भकर्णस्य वधं कृतवान्
विल् गेट् टु आल् द अदर् मीनिङ्ग्स् लेटर् बट् जस्ट् ऐ एम् होपिङ्ग् बै लुकिङ्ग् एट् द सेण्टेन्स् यु नो वाट् इट् मीन्स् रामः रावणस्य कुम्भकर्णस्य च वधं कृतवान् ओके
मथुरायाः राजा
उग्रसेनः उत्तमं रवि महोदय केन् डु द नेक्स्ट् वन्
उग्रसेनस्य पुत्रः कंसः
गायत्री भगिनी
हंसहस्य भगिनी देविका
वाट् केन् यू से द वर्ड् अगेन्
कंस देवकी
हंसहस्य
नो नाट् कंसहस्य रामः रामस्य कंसः
हंसस्य
उत्तमं कंसस्य
भगिनी देवकी
देवकी हंसस्य भगिनी देवकी कौसल्या भगिनी
देवक्याः पतिः वसुदेवः पुत्रः कृष्णः
उत्तमं रङ्गमहोदय
कृष्णस्य कृष्णः नन्दगोपस्य
यशोदायाः
च पालितपुत्रः अपि
पालितपुत्रः पालितपुत्रः उत्तमम् ओके मुरली महोदय
वाट् इस् पालितपुत्र
पालित मीन्स्
ओके पालितपुत्र
अडाप्टेड् सन् रैट्
न या रेज्ड्
अडाप्टेड् सन् या रेज्ड् ओके
या या
ओके मुरली महोदय
कुन्त्यस्य पुत्रः
अर्जुनः कुन्ती लुक् एट् द वर्ड् देयर् कुन्ती
ओ इट् शुड् बी कुन्त्याः इति
उत्तमं या
कुन्त्याः पुत्रः अर्जुनः
कुन्त्याः पुत्रः अर्जुनः उत्तमम्
अर्जुनः
शङ्कर महोदय
हा महोदय सः अर्जुनः कृष्णस्य भगिनी सुभद्रायाः पतिः
कृष्णस्य भगिनी सुभद्रायाः पति
अस्तु अर्जुनः सुभद्रायाः पतिः अस्ति ओके अर्जुनः सुभद्रायाः पतिः अस्ति ओके किन्तु सुभद्रा कृष्णस्य भगिनी अस्ति ओके कृष्णस्य भगिनी सुभद्रा कृष्णस्य भगिन्याः सुभद्रायाः पतिः अर्जुनः यथा अहं दशरथस्य पुत्रः रामः रामः दशरथस्य प्रथमः पुत्रः अस्ति okay understand the sentence is everyone sees
Dashrath's first son right
don't try to translate everything but try to understand how I'm actually saying the sentence okay it's going to be very complicated if you translate each and every word moving forward now it might work but moving forward you will it's going to be a problem okay Dashrath'sya prathama putraha ramaha okay Dashrath'sya prathamaha putraha रामः ओके दशरथस्य प्रथमस्य पुत्रस्य नाम रामः
करेक्ट् या फैन्
अण्डर्स्टाण्ड् द डिफरेन्स् बिट्वीन् दोस् टू सेन्टेन्सेस् प्लीज़् एव्रीवन् दशरथस्य प्रथमः पुत्रः रामः दशरथस्य प्रथमस्य पुत्रस्य नाम राम यथा एषः सः वि डिड् दट् रैट् ओके फार् एक्साम्पल् एषः शेखरः एतस्य नाम शेखरः तथैव रामः दशरथस्य पुत्रः दशरथस्य पुत्रस्य नाम रामः Are those sentences clear? Okay, let's look at this one. Eshaha Ramaha asti. Eshaha kaha?
Eshaha
Ramaha. Ramaha Dasharatasya Putraha asti. Ramaha Dasharatasya Putraha asti. Dasharatasya Putrasya Nama Rama. Did you get the difference between those two sentences, everyone?
Ramaha Dasaratha Putrasya.
Dasaratasya Putraha Ramaha.
Dasaratasya Putraha Ramaha. Dasaratasya Putrasya Nama Ramaha.
Uttam. नामः न नोन्ली नाम रामः डिड् यु अण्डर्स्टाण्ड् द डिफ़रेन्स् बिट्वीन् दोस् टु
यस्
ऐ थिंक राम राम इज़ सन् आफ़् दशरथ दशरथ सन् इज़ राम
लैक् फार् एक्साम्पल् वी डिड् इन् हियर् राइट् एषः रामः एतस्य नाम रामः सिमिलर्ली रामः दशरथस्य पुत्रः दशरथस्य पुत्रस्य नाम रामः
इस्
इट् क्लियर् फार् एव्रिवन्
दशरथस्य इस् एन् अड्जेक्टिव् टु पुत्रस्य
यस्
इट्स् प्रोबब्लि इन् इङ्ग्लिश् द फस्ट् वन् ट्रान्स्लेट्स् दशरथ सन् इस् राम सो वि आर् पुटिङ्ग् दट् अस्य ओन्लि वन्स् Second one we are saying Dasharatha's son's name is Rama. So that's why we are adding that in both of them, correct?
That's correct.
So likewise, Subhadrayaha, Bhaginyaha is an adjective to Subhadrayaha.
Yes, exactly. Satya.
Yeah, right. That's where I'm getting confused because Bhagini is sister, right? So,
okay.
Krishna's sister, Subhadra's husband. That's what you are saying, right?
Yes, so, okay.
For Krishna, so, I can say Krishna here, but it is not sister's. Oh, okay. Krishna's sister's
krishna sister is subhadra subhadra son subhadra's pati right
correct yeah
so that's what we're saying krishnasya bhagini bhagini subhadra they both you know like she said you know adjectives there okay one is the noun and other one is the adjective there so krishna's bhagini bhaginyah subhadrayah pati
that's where I'm getting confused because if you talk it in English it says krishna
that is exactly why I say subhadra, do not right? translate
okay
that's exactly okay. why I say do not translate so like for example if I say uttamah balakah okay if I say uttamah balakah asti okay when I say uttamah who am I referring to there
balakah
when I say balakah I'm referring to uttama there right so this those two balakah and uttama refer to the exact same person similarly when I say bhagini and subhadra bhagini refers to krishna's sister and all the same time bhagini also refers to subhadra because she is the one so bhagini and subhadra okay when I say krishna okay instead of forget about the word subhadra here for example
okay
forget about the word subhadra krishnasya bhaginyah patihi arjunah
yeah that is clear
that is clear
there I can understand yeah that is clear
okay if I add subhadra there subhadra is the bhagini right
correct
so I say krishnasya bhaginyah subhadrayah subhadrayah patihi arjunah because bhagini and subhadra are no different they are one and the same
okay
Shekhaji, you repeat again that one krishnasya
bhaginyah subhadrayah patihi arjunah
yeah
like for example here okay dasharathasya chatvarah putrah pratamasya nama ramah दशरथस्य प्रथमः पुत्रः रामः दशरथस्य प्रथमस्य पुत्रस्य नाम राम सेम् थिङ्ग् रैट् दिस् इस् नो डिफ्रेण्ट् फ्रम् दट् प्रथम पुत्रः भगिनी सुभद्रा इफ् यु अण्डर्स्टाण्ड् दिस् सेण्टेन्स् प्रथमपुत्रः यु शुड् आल्सो अण्डर्स्टाण्ड् दिस् सेण्टेन्स् हियर् हौ इस् प्रथम एनी डिफ्रेण्ट् फ्रम् पुत्रः हियर् इन् द फस्ट् सेण्टेन्स् इट् इस् नाट् Similarly, Bhagini and Subhadra, they're not any different.
Okay, so let me understand this, this way, Shekharji. So if I want to say, my son Arvind's friend is Ramesh. When I say this, should I say, Mama Putrasya Arvindasya friend Mitru Ramesh? Yeah, will I say this way? Or should I say, Mama putra arvindasya mitraha ramesh
no you will say mama putrasya what's your son's name sorry again
okay. arvind
mama putrasya arvindasya mitrasya nama
mitrasya okay
athava
okay
mama putrasya arvindasya mitram suresh
okay yeah now we
okay this is
clear
yeah I'm only saying this in English because you know I haven't introduced the kriya padas yet once we get to kriya padas we will only convert in Sanskrit in the class
that is it zeroes down to the fact that the noun and the adjective should be in the same case that's all
that is it yes
that's all yes correct
भगिन्याः सुभद्रायाः प्रथमस्य पुत्रस्य
यस्
यस् करेक्ट्
गुड् सोफर्
सोफर् सो गुड्
ओके ओके अनन्तरं शङ्कर् महोदय भवान् करोतु
आं हा महोदय सुभद्रायाः पुत्रः अभिमन्युः
डू द नेक्स्ट् वन् एज़् वेल्
अभिमन्यु उत्तरायाः पतिः
उत्तमं सो फार् इट् शुड् बि क्लियर् ऐ होप् ओके सो विल् क्विक्लि डू दिस् वि नो रामः इट् बिकम्स् रामस्य सो इवेञ्चुलि इट् इस् यु रैट् इट् लैक् दिस् रामस्य अधुना कृष्णः अस्ति वा एषः कृष्णः अस्ति वा प्रश्नः अस्ति एषः कृष्णः अस्ति वा न वा एषः कृष्णः
अस्ति
कृष्णः अस्ति वेणुः अस्ति वा
वेणुः अस्ति
कृष्णस्य वेणुः अस्ति वा
कृष्णस्य वेणुः अस्ति वेणुः अस्ति
एषः रामस्य वेणुः अस्ति वा
एषः रामस्य वेणुः नास्ति
एषः कस्य वेणुः अस्ति
एषः कृष्णस्य
वेणुः अस्ति
एषः कृष्णस्य वेणुः
अस्ति
अधुना कस्य कस्य मीन्स् इट्स् वेरि इट् शुड् बि वेरि क्लियर् कस्य कस्य वेणुः अस्ति कृष्णस्य वेणुः अस्ति ओके कस्य पुत्रः रामः एव्रिवन् प्लीस् अण्डर्स्टाण्ड् द क्वशन् फस्ट् अण्ड् फार्मस्ट् इट् इस् वेरि इम्पार्टेण्ट् टु अण्डर्स्टाण्ड् हौ ऐ एम् आक्चुलि आस्किङ्ग् द क्वशन् ओके दट् मेक्स् अ बिग् बिग् डिफरेन्स् ओके मै क्वशन् इस् कस्य ओके कस्य ओके फर् फिमेल् ओके कस्य इस् अ पुंलिङ्ग क्वशन् रैट् ओके फर् कः द फार्म् इस् कस्य फर् का वाट् इस् द फार्म्
कस्याः
कस्याः वि डिस्कस् इट् द लास्ट् वीक् कः बिकम्स् कस्य फार् एक्साम्पल् कस्य पत्नी सीता रामस्य पत्नी सीता सिमिलर्ली कस्याः पतिः रामः सीतायाः
पत्नी
रामः
पतिः रामः
सीतायाः पतिः रामः सो नौ अण्डर्स्टाण्ड् मै क्वशन् कस्य पुत्रः रामः
रामः दशरथस्य पुत्रः
रामः दशरथस्य पुत्रः उत्तमं कस्याः पुत्रः रामः
रामः कौसल्याः पुत्रः
उत्तमं कौसल्यायाः कौसल्यायाः पुत्रः रामः ओके नौ शङ्कर् महोदय यू आन्सर् ओके कस्य पत्नी पार्वती
शिवस्य पत्नीः पार्वती
नाट् पत्नीः पत्नी
शिवस्य पत्नी पार्वती
ओके नौ ओके ऐ विल् से द आन्सर् यू आस् अ क्वशन् ओके ऐ विल् से द आन्सर् यू आस् अ क्वशन् ओके नद्याः नाम गङ्गा
कस्याः नाम नदी
नद्याः
नाम किं दट् इस् करेक्ट् आर्
कस्याः नदी
कस्याः नाम गङ्गा कस्याः नाम गङ्गा सिमिलर्लि इफ् ऐ से उत्तरायाः पतिः अभिमन्युः प्रश्नः कः तत्र
कस्याः
पतिः अभिमन्युः. इफ् ऐ से उत्तर नो नो ऐ डोण्ट् वाण्ट् टु कारन्तान ओके इफ् ऐ से शचीदेवी इन्द्रस्य पत्नी ओके वाट् इस् द क्वशन् देर्
कस्याः पत्नी शचीति
कस्याः वा
कस्य पत्नी रतिदेवी सारी शचीदेवी
शचीदेवी
ओके शचीदेवी
ओके इस् दिस् क्लियर्
सो द क्वशन् इस् कस्याः पत्नी शचीदेवी
कस्याः पत्नी वन्दे
So, here is the exercise, guys. Now, I'm going to give you one sentence, okay? I want you to ask the question in two different ways. For example, you can say, Ramaha Sitayaha Patihi. Okay? I'll give you two words, actually. So, this is what I'm going to do. I'll say Ramaha and Sita. Okay? Now, I want you to give two sentences. Okay? Ramah Sitayah Patihi. So, the question there will be, Kasyah Patihi Ramah. Okay? I'll say, Ramasya Patini Sita. The question would be,
Kasya Patini, Patini
Sita.
Sita.
Is this clear?
Yeah.
Yeah.
Okay. So, now, who wants to be the Ganapati?
Ganapati is there, Natarajan. I can be a Ganapati.
Okay, sure. Okay. So, for you, it'll be, okay, since you mentioned Rati Devi before, Manmataha Rati Devi.
Manmataha Patnihi Rati Devi.
No, Manmataha. What would it be?
Manmatasya.
Hmm.
मन्मथस्य पत्नी रतिदेवी
क्वशन्
कस्य पत्नी रतिदेवी
उत्तमं कस्य पत्नी रतिदेवी ओके दादर् सेण्टेन्स् नो
कस्याः पतिः मन्मथः
उत्तमं
रतिदेवीयाः पतिः मन्मथः
Rati Devyaha, not Devyaha.
Oh, yeah, Rati Devyaha.
Okay. Yeah. Is this clear now? Can everyone please mute? Okay, thank you. Okay, so Natarajan Mahodaya is done. And now, Ranga Mahodaya. Are you there? He's not there. Gayatri ji, can you?
Yes.
Okay. Are you? Let's say Narayanaha, Narayanaha, Lakshmi. Let's go.
Kasya Patni. नारायणस्य पत्नी लक्ष्मी
कस्य पत्नी लक्ष्मी नारायणस्य पत्नी लक्ष्मी उत्तमं नेक्स्ट्
कस्याः पत्नी
नो कस्याः
पतिः लक्ष्मीयाः पत्नी पतिः नारायणः
उत्तमं लक्ष्मीयाः पतिः नारायणः उत्तमम् अस्तु अधुना रविमहोदय
जि
अर्जुनः धर्मराजः ओके अर्जुनः धर्मराजः ओके द वर्ड्स् विल् बि अग्रजः फर् एल्डर् ब्रदर् anujaha for younger brother. Okay, agrajaha anujaha. Go ahead.
Kasya dharmaraja anujaha.
No.
Kasya anujaha dharmaraja.
No. Hey, how can a dharmaraja be anujaha?
No, I'm saying who is a brother of Dharmaraja.
No. Kasya. What would the sentence be?
You mean to say like Kasya Arjuna Anujaha. Yeah, you're right. Kasya Arjuna Anujaha.
Arujaha Arjuna Kasya Anujaha. Okay. Arjuna Kasya Anujaha.
Anujaha.
Answer for that.
Arjuna Dharmarajasya Anujaha.
Uttamam. Arjuna Dharmarajasya
Anujaha.
Can you say those two sentences one more time, just for clarification?
Yes. Arjuna Dharmarajasya Anujaha.
Question.
Kasya Anujaha Arjuna.
Uttamam. Kasya Anujaha Arjuna. The other sentence. Okay.
And would you repeat again?
No, no, the other one. Say the other sentence now. You said Arjaha.
Oh,
based from the Agraja sentence.
Agrajaha, yeah. Yeah. Arjunasya Agrajaha Dharmaraja. Kasya Agrajaha Dharmaraja.
Uttamam. Kasya Agrajaha Dharmarajaha. Arjunasya Agrajaha Dharmaraja. Uttamam. Good, good. So, Anju Sharmaji.
Ji.
So you, okay, will Rukmini Krishna.
Kasi Patani Rukmini. Kasya patni Rukmani.
Uttamam.
Rukmani Krishnasya patni.
Uttamam. The other sentence.
Kasya patni Krishna. Kasya Krishna pati.
Kasya va. What would the question be there?
Question will be Kasya Patan
Krishna
Kasya Patani
Patihi
Krishna Kasya Pati Krishna Rukmanyaha Patani Krishnasya.
No. Rukminyaha patihi. Rukminyaha patihi.
Rukminyaha patani krishnasyaha.
No.
Krishnaha.
Rukminyaha patihi krishnaha.
Rukminyaha pati krishnaha.
Okay. Is this clear, Anju Sharmaji?
Ji, thoda sa main practice kar lungi.
Yeah. This is very, very important. This is very, very important. Okay. Yeah. And Kausalya ji. Bhavati vadato. Kuchelaha Krishnaha.
Krishnaha. Okay. Mitram.
Okay. One very important distinction here. When I say mitram, okay, napumsakalinga word. When I say mitram, arthahasti friend. Okay, napumsakalinga word mitram means friend. Okay, pumlinga word mitraha means suryaha. Okay, if you say mitraha, you're referring to sun, suryaha. If you say mitram, you are referring to your friend. Is this clear?
Yeah.
Okay. So, for both male and friend, it's only Mitram, is it? It's a Napumsakalinga.
Yes, yes. Yeah, yeah. For male and female, it's Mitram. Yes, that is correct.
Okay.
Okay. Okay. Adhana, Kuchelaha Mitram asi, not Mitraha. Okay? So, Kuchelaha and Krishnaha. Now, can you say the sentence? A Kausalya ji?
कृष्णः कस्य मित्रं कृष्णः कुचेलस्य मित्रं कुचेलः कस्य भक्तः कुचेलः कृष्णस्य भक्तः
उत्तमम् उत्तमम् सो मुरळीजी
Hi,
Shikha ji. Oh, you're still here. Thank you. Okay. Mathura Krishna.
So, what is the word that joins them? He's from, is it? Krishna is from Mathura.
No, no, Raja.
Raja, is it?
Yeah. No, I promise he's the Raja. No doubt about it. You can say the sentence. Okay.
Okay, we take your word.
Yeah.
Can it be Mathura Kasya Nagari, Mathura Krishnasya Nagari?
Sure, that too, but you know, please don't confuse them yet. Okay, let's just use the word Raja for now. Mathura, Raja, and Krishna.
Krishna Kasyasya Raja.
No, no, Krishna.
Kasya Raja.
Mathura, Mathura, Tata.
Sorry, Shikaji, repeat that.
Mathura, look at the word, Mathura.
Okay, Mathura. So I need your help. I'm sorry.
No, let's take help from someone else. Okay, who wants to help him?
Mathura Yaha.
Ah, Uttama, Mathura Yaha. So, what's the question there?
Kasya Raja Mathura
Mathura Yaha Raja Kaha
Mathura Yaha
Mathura
okay. Yaha. We have to give that word, we have to use it like
Raja.
Rukmini is Patni, Krishna like that. Krishna Raja, Raja Mathura.
Should be Kasya Raja Mathura.
No.
Sorry, Krishna. Guys. Krishna.
Sorry. Yeah. So a thumb rule here, right? Thumb rule. Okay? You have to look at which word actually has the vibhakti. Okay? For example, let me give you one example here. Okay? Ramaha Sitara, stand example all the time. Okay? Ramasya Patni Sita. Okay? My sentence now is Ramasya Patni Sita. I changed the word Ramaha, right? Okay? I changed the word Ramaha. So my question, I changed the Pumlinga word there, right? So my question will also be in Pumlinga only. So because I changed Ramaha to Ramasya, that is the only word I will change. So Ramasya Patni Sita. So I'll change Ramasya to Kasya now. Kasya Patni Sita. Ramasya Patni Sita. Is this clear? Look at the word that you have changed. You replace that word with your question. If I say
Kasya,
if I say Sitayaha Patihi Ramaha. If I say Sitayaha Patihi Ramaha. I change the word Sita to Sitayaha. Right? So Sita Yaha is the one that I'm changing. So the question will also be in the same place. So instead of Sita Yaha now, I'll say Kasyaha there as a question. Kasyaha Patihi Ramaha. Sita Yaha Patihi Ramaha. Is this clear?
So Kasyaha Raja Krishna.
Kasyaha.
Kasyaha Raja Krishna.
Uttamam. Answer?
Maturayaha Raja Krishna.
Uttamam. The other way around now.
Krishnasya Kasya Raja Krishna. No.
Can you say the first sentence one more time, please? Maturayaha Raja Krishna.
Matrayaha Raja Krishna.
So what will the question, what's the question there?
Kasyaha Raja Krishna.
Uttamam. Kasyaha Raja Krishna. Now say the sentence in the other way around. Krishnaha.
Krishnaha. Matura Raja.
No. Krishnasya.
Krishnas. Yeah, go ahead.
Can anyone help him? Krishnasya.
Matura Raja.
Krishnasya. Krishnasya Rajaha Madhura. Matura.
No. Krishnasya Rajyam. Krishnasya Rajyam Matura.
Kasya Rajyam Matura. Krishnasya Rajyam Matura.
Uttamam. Does anyone have any question here?
I think I need to practice, Shikarji.
No, that is given. That is given. Practice is given.
It's really confusing sometimes, yeah.
So, question is, concept-wise, is it clear or not?
Yes.
Okay. Because Shashti Vibhakti is something that we use. I mean, that's like the most commonly used Vibhakti, and that is why we do the first. Okay, I don't know about other languages, but in Telugu we say mamakaram. Okay, mamakaram means, you know, mama, the feeling towards everything. So what is it? Mama nama, mama pustakam, mama upanetra, mama patni, mama putraha. So there is this mamakaram everywhere. So that is why we do this vibhakti first. The only way we identify with the only way we interact with everyone is using this mama feeling. Otherwise, we don't interact with anyone, right? So that's why we do this vibhakti first. Okay. Shashti vibhakti is most commonly used. Say, just try to say something, you know, mama pustakam, mama upanetram, mama dhuravani, mama syutaha, mama gruham. Right, mama is a Shashti Vibhakti word there. Just like the way I say, aham shekharaha, mama nama shekharaha, eshaha shekharaha, etasya nama shekharaha, saha ravihi, tasya nama ravihi. Just like the way eshaha becomes etasya, saha becomes tasya. Yeah, aham becomes mama. That is why we say aham shekharaha, mama nama shekharaha. Sa lata, tasyaha nama lata. Kasyaha nama lata, tasyaha nama lata. So, like here. Pashyatu. Eshaha Ramaha. Etasya Nama Ramaha. Kasya Nama Ramaha. Etasya Nama Ramaha. Etaha Krishnaha. Tasya Nama Krishnaha. Kasya Nama Krishnaha. Tasya Nama Krishnaha.
Both the places, Kasya only. Yeah.
Yeah. it doesn't matter etasya or tasya, doesn't matter. Kasya is the question, right? It doesn't matter if you are near or far. Okay, but can you refer Ganesha, please?
Yeah. Etasya nama Ganesha. Tasya nama Anchaneya.
Question.
Etasya nama kim? Etasya nama Ganesha. एतस्य नाम गणेशः.
ओके,
तस्य कः?
नो नो,
तस्य आञ्चनेयः.
तस्य नाम किम्?
ओ ओके, तस्य नाम किम्? तस्य आञ्चनेयः. आञ्चनेयः. आञ्जनेयः.
यु केन् स्टिल् आस्क्, देयर् इस् नो वन् स्टापिङ्ग् यु. यु केन् स्टिल् आस्क् द क्वेश्चन् अण्ड् आन्सर्.
ओके ओके,
केन् इट् गो द अदर् वे? कस्य नाम आञ्जनेयः, तस्य नाम आञ्जनेयः.
डेफिनेट्लि कस्य नाम आञ्ज. ओके, सो हियर् आर् आल् द पासिबिलिटीस्. ओके, फार् एक्साम्पल्, एषः गणेशः. ओके, एषः कः? एषः गणेशः. लैक् द फस्ट्, लैक् द वे वि स्टार्ट् द क्लास् टुडे, भवान् कः? अहं रविः. सोन् अण्ड् सुपर् दिस् सिमिलर्लि, एषः कः? एषः गणेशः. एतस्य नाम गणेशः. एतस्य नाम किम्? एतस्य नाम गणेशः. कस्य नाम गणेशः? एतस्य नाम गणेशः. सो प्लीज़् एव्री वन् रैट् डौन् दिस् फोर् सेण्टेन्सस् दिस् वे, यु नो, विल् डू दिस् एक्ससैज़् नौ. ऐ वाण्ट् एव्री वन् टु आक्चुलि see the sentences in this way. I want everyone to know the all the possible options. Okay, first one is eshah ganeshah. Eshah kah?
Slowly.
Okay, eshah kah? Eshah kah? Eshah ganeshah. Okay, etasya nama kim? Etasya नाम गणेशः. कस्य नाम गणेशः? एतस्य नाम गणेशः.
लास्ट् वन् व्हाट् डिड् यू से? कस्य नाम
कस्य कस्य नाम गणेशः? एतस्य नाम गणेशः.
So the answer is same whether the question is etasya or
kasya.
Two questions, same answer?
No, etasya is not a question, right? Etasya is not a question. Okay, think of it like this. I don't want to translate this in English because English doesn't truly reflect the meaning. I can only say it in Telugu, but the problem is if I say it in Telugu, I can't say it in Hindi because I don't know the language really well. So can anyone translate this in Hindi? Does anyone understand like Telugu and Hindi in a group?
No.
Yes.
Yes.
Okay. Okay, so I'll say it in Telugu. Please say it in Hindi as well for the group. I had Tamil and all, I have no idea, I'm sorry. Because of the Hindi movies, I know some Hindi. Okay, so here it is. Itanu Ganeshudu. Itanu Vinayakudu. Remember Ganeshudu. Ganesha. Itanu Ganesha. Itanu Yavaru. Itanu Vinayakudu. Okay, can you say that in Hindi, please? एषः कः? एषः गणेशः. सेम् थिङ्ग् वित् मी सो फार्. एव्री वन्, ऐ ओन्ली हर्ड् त्री. थ्याङ्क् यू. ओके, इतनि पेरु विनायकुडु. एवरि पेरु विनायकुडु? इतनि पेरु विनायकुडु.
इनका नाम क्या है? इनका नाम विनायक है.
सिमिलर्लि एतस्य नाम गणेशः कस्य नाम गणेशः इट्स् अ गुड् क्वश्चन् कस्य नाम गणेशः एतस्य नाम गणेशः
किस्का नाम गणेशः
इस्का नाम गणेशः लुक् एट् आल् द वेस् दट् यु केन् आक्चुलि से इस् इस् क्लियर्
Shikharji, you earlier mentioned there are four ways, but we have only...
But only three, right?
Three, yes.
Okay, only three.
Yes.
Okay, thank you.
Yes, yeah. So
Shikharji, the last one?
Mm-hmm.
Shikharji, the last one you said, Kasya Nama Ganesha, right?
Yes.
Mm-hmm.
So, when you repeated in Telugu, what did you say? Itanu, itani peru, what is the last one?
Itani peru, yavari peru. ఎవరి పేరు వినా ఓకే క్లియర్ నౌ ఫర్ ఆంజనేయ రంగాజీ కంజు ఫర్ ఆంజనేయ గాన్ రైట్ రంగమహోదయ ఇది దేర్ ఆర్ నాట్ Yeah, it's probably too boring for him. Okay, Ravi Mahoday, you go.
Yeah. Were you asking me for Anjaneya?
Yes.
Okay. Eshaha kaha? Eshaha Anjaneyaha. Etasya nama kim? Etasya nama Anjaneyaha. Kasya nama Anjaneya? एतस्य नाम आञ्जनेयः
सूपर् इस् इस् क्लियर्
यस्
यप्
ओके नेक्स्ट् वन् फर् शिवः गोहेड् दादवान् Nataraj Mahadeya or Badu, who was it?
Murali.
Murali ji, go ahead, sorry. Go ahead.
Eshaha kaha, Eshaha Shivaha. Etasya nama kim? Etasya nama Shivaha. Kasya nama Shivaha? Etasya nama Shivaha.
Super. And Nataraj Mahadeya, can you do the next one?
Sure. सः कः सः बुद्धः एतस्य नाम किम् एतस्य नाम बुद्धः कस्य नाम बुद्धः तस्य नाम बुद्धः
सूपर् आल्मोस्ट् एन्जाय् टु यस् एक्चुअलि हियर् थेङ्क् यु पद्मराजि कान् यु
Yeah, I can try. Eshah kaha? Eshah pustakah?
No.
Oh.
Ramayanam pustakam. So, what would it be?
Oh.
Etat.
Kim?
Etat kim, exactly. Etat kim?
Etat pustakam. एतस्य नाम किम् एतस्य नाम रामायणं पुस्तकं कस्य नाम रामायणम् एतस्य नाम रामायणं
वण्डर्फुल् कौशलजि महाभारतम्
एतत् किम् एतत् महाभारतम् एतस्य नाम किम् एतस्य नाम महाभारतम् कस्य नाम महाभारतम् एतस्य पुस्तकस्य नाम महाभारतम्
उत्तमम् इस् क्लियर् जस्ट् लैक् द वे वी हाव् एषः एतस्य कस्य तस्य सो आन् सो फोर्त् इट् विल् बि एतस्याः तस्याः कस्याः एस् अ क्वशन् ओके सेम् फार्मेट् इन्स्टेड् आफ् एषः कः विल् से एषा का ओके शाल् ऐ डु दिस् एस् एन् एक्साम्पल् ओके एषा का एषा उमा नेक्स्ट् थिङ्ग् एतस्याः नाम उमा कस्याः नाम उमा एतस्याः नाम उमा ओके फर् लीला केन् वि हू लूट् फर् लीला
अञ्जु
गो अहेड्
एषा का एषा का एषा लीला एतस्य नाम का एतस्याः नाम का
नाम का वा नाम
का वा
लीला
नाम किं
नाम किम् एतस्या नाम किम् एतस्या नाम लीला
एतस्याः नाम
किम् सोरि अल् जस् इट् अगेन् एतस्या नाम एतस्याः नाम किम् एतस्याः नाम लीला कस्य नाम लीला कस्याः नाम लीला एतस्याः नाम लीला
शङ्कर महोदय
एतस्याः हस्कम् एतस्याः नाम का अनि अडक्कूडदा किम् अडक्कूडदा
नो नो नाम इस् किं दट् इस् रैट् नाम इस् नपुंसकलिङ्ग वर्ब् अतः
जी महोदय एषा का एषा रमा एतस्याः नाम किम् एतस्याः नाम रमा कस्य नाम रमा एतस्य नाम रमा
in every word in etasya just repeat it tasya because it's father aware that's the whole point here etasya and tasya here okay that's fine but here it's all tasya not etasya but that's okay. Totally fine okay lakshmi okay ranga maha nakaradan mahoday sorry
yeah okay esha ka esha lakshmi hi कस्याः नाम लक्ष्मीः एतस्याः नाम लक्ष्मीः एतस्याः एतस्याः नाम लक्ष्मीः
नाम किम्
एतस्याः नाम किम् एतस्याः नाम लक्ष्मीः
सरस्वती
एषा का एषा सरस्वती कस्याः नाम किं कस्याः नाम सरस्वती कस्याः नाम सरस्वती
कस्याः नाम सरस्वती
सरस्वती
तस्याः नाम सरस्वती Is this clear?
Yes, yeah.
Okay, so last week I put like a homework. I haven't received many responses. Please make sure that you know you practice stuff. That is the only way you will remember. And I don't want you to actually write the sentences every time. I want you to see the sentences. that is the only way you remember all this. Okay, hang on one minute, actually.